मग्नः कर्मनयावलम्बन परा ज्ञानं न जानन्ति यत् मग्ना ज्ञाननयैषिणोऽपि यदते स्वच्छन्दमन्दोद्यमा विश्वस्योपरि ते तरन्ति सततं ज्ञानं भवन्तः स्वयं ये कुर्वन्ति न कर्म जातु न वशं यान्ति प्रमादस्य च।